एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारेण नेपाल राजस्व परामर्श विकास समितेः संगठनादेशः निरस्तीकृतो वर्तते। आश्विनस्य एकादश दिवसे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की, कास्की जनपदवर्तिन्यः करुवा सेती जलविद्युत आयोजनायाः निर्माणाय राष्ट्रिय वनक्षेत्रस्य प्रयोगाय अनुमतिम् दातुम् उपवेशेन निर्णीतमिति अज्ञापयत्। मन्त्री कार्की गोर्खा जनपदस्थितायाः मध्य सुपर दरौदी खोला जलविद्युदायोजनायाः निर्माणार्थं राष्ट्रिय वनक्षेत्रस्य प्रयोगाय च अनुमतिम् दातुम् उपवेशेन निर्णीतमिति अवोचत। एवमेव मन्त्री कार्की ऋण प्रतिग्रहण न्यायाधिकरणस्य रिक्ते विधि सदस्य पदे विधि न्याय संसदीय विषय मन्त्रालयस्य उपसचिवम् जंगबहादुर डाँगी इत्यमुम् नियोक्तुम् केचना कञ्चनजंगा पर्यटन विकास समितेः अध्यक्षम् कार्यकारी निर्देशकम् च पदात् अपाकर्तुम् च उपवेशेन निर्णीतमिति अवोचत। डेंगू रोगस्य संक्रमणेन ह्य एकस्मिन् एव दिने चत्वारो जनाः मृताः इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। देशस्य 67 जनपदेषु प्रसृतस्य डेंगू रोगस्य संक्रमणेन अधुनावधि आराष्ट्रं मृतानां जनानां संख्या 37 प्राप्तास्ति। श्रावण मासात् अधुनावधि आराष्ट्रं 27 सदस्येषु 69.5% च जनेषु डेंगू संक्रमणं पुष्टिभूतम् अस्ति। सर्वाधिकेषु बागमती प्रदेशे 21% .5% जनेषु संक्रमणं दृष्टं वर्तते। संक्रमणस्य निरोधन नियन्त्रणयोः कृते महामारी रोग नियन्त्रण महाशाखया 49% स्थानीय स्तरेषु 60 जनपदेषु 70 एव प्रदेशेषु च अन्वेषण विनाशनाभियानं संचालितम् अस्ति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य नेतुः डाक्टर शेखर कोइराला विधस्य समूहेन ह्य सानेपास्थिते दल कार्यालये परिवेष्टनम् विहितम्। असन्तुष्ट समूहस्य गत सोमवासरे उपविष्टेन उपवेशेन दलस्य आन्तरिकतायै समानावसराय न्यायाय च दल कार्यालये परिवेष्टने स्थातुम् विहितस्य निर्णयस्य अनुसारेण अनेन समूहेन दिवा एकवादनात् एकघण्टा पर्यन्तम् परिवेष्टनम् विहितमिति कांग्रेस नेता जगदीश नगरसिंह केसी अज्ञापयत्। श्वः चतुर्दश दिवसम् यावदपि समानुपातिक सूच्याम् असंशोधितायम् सत्याम् अतिरिक्तान् विरोधस्य कार्यक्रमान् निर्धारयितुम् असन्तुष्ट समूहेन पूर्वकार्यम् विहितमस्ति। सभामुख अग्निप्रसाद सापकोटा कथयति विकास प्रविध्योः उच्चतम संयोजने विहिते सति राष्ट्रस्य विकासे चामत्कारिकं परिवर्तनमानेतुं शक्यते। सूचनायाः सर्वव्यापकता सम्बद्धान्तरराष्ट्रिय दिवसस्य अवसरे राष्ट्रिय सूचनायोगेन नेपाल दूरसञ्चार प्राधिकरणे च संयुक्तारूपेण ह्य काष्ठमण्डपे आयोजितायां गोष्ठ्यां सभामुख सापकोटा सूचनायाः अधिकाराणां प्रयोगेण लोकतन्त्रं सुदृढायते इत्यतः सर्वैः सूचनायाः अधिकार उपभोगः कर्तव्येति बलं प्रादात्। राष्ट्रिय सूचनायोगस्य प्रमुखायुक्तः महेन्द्रमान गुरुङ अनलाइन प्रणाल्याः माध्यमेन सूचनायाः याचनायाः व्यवस्था विद्यमाना वर्तते इति अज्ञापयत्। निर्वाचनायोगेन आचार संहितायाः क्रियान्वयनस्य सम्पूर्णां व्यवस्थां विधातुं स्तरत्रयस्यैव सर्वकाराः विभिन्नाः व्यक्तयः निकायाः अधिकारिणश्च निर्दिष्टाः सन्ति। आयोगेन ह्यस्तनदिवसात् क्रियान्वितायाः निर्वाचनाचार संहितायाः क्रियान्वयनं कर्तुं कारयितुं च नेपाल सर्वकारः नेपाल सर्वकारस्य मन्त्रिणः प्रदेश सर्वकारः प्रदेश सर्वकारस्य मन्त्रिणः सांविधानिक निकायाः एतेषां पदाधिकारिणः नेपाल सर्वकारस्य प्रदेश सर्वकाराणां निकायाः एतेषां पदाधिकारिणः स्थानीय कार्यपालिकाः एतासां सदस्याः संघ प्रदेश स्थानीय स्तराणां कर्मचारिणश्च निर्दिष्टाः सन्ति। सुरक्षा निकायेषु सुरक्षाकर्मिषु कर्मचारीषु सर्वकारीयेषु अर्धसर्वकारीयेषु सार्वजनिक संस्थानां च कार्यालयेषु राजनीतिक दलेषु राजनीतिक दलानां भातृ संगठनेषु प्रत्याशीषु प्रत्याशिनां मतदान प्रतिनिधिषु मतगणनायाः प्रतिनिधिषु सार्वजनिक पदधृतवत्सु जनेषु च आयोगेन प्रकाशितायाः आचार संहितायाः क्रियान्वयनं भवति। सुनसरी जनपदस्य देवानगंज ग्रामपालिकायां ह्यो वज्रपातेन दौ जनो अम्रियताम्। मृतकौ देवानगंज ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य पञ्चचत्वारिंशत् वर्षीया रीता देवी यादवः, द्वितीयवडा क्षेत्रस्य उदित चन्द्र यादवश्च स्तः इति सुनसरी जनपदस्य प्ररिणायव उपरीक्षका राजकुमार राई अज्ञापयत्। मैष्याः गोष्ठे जलपायनस्य समये वज्रपात प्रहारेण रीता देवी मृता। गृहनिकटस्थे क्षेत्रे घासकर्तनस्य क्रमे सवृष्टि दुरापन्नेन वज्रपातेन उदित चन्द्रश्च मृतौ इति प्ररिणायव उपरीक्षका राई ज्ञापितवान्। सर्वोच्च न्यायालयः अस्य वर्षस्य विजयादशमी पर्वणः अवकाशस्य समयेऽपि पूर्वाह्नस्य एकादशवादनात् दिवा त्रिवादनं यावत् उद्घाट्यते। विजयादशमी पर्वणः अवसरे घटस्थापनायाः दिवसतः अस्यैव आश्विनस्य त्रयोविंशं दिवसं कोजाग्रत पूर्णिमां यावत् बन्दी प्रत्यक्षीकरणादेशाभियाचन निवेदनं विलोकयितुम् एतस्मिन् अवधौ न्यायालयः उद्घाट्यते इति सर्वोच्च न्यायालयस्य प्रवक्ता विमल पौडेलः अज्ञापयत्। त्रिसप्तत्यधिक द्विसहस्रतम विक्रमाब्दस्य न्याय प्रशासनाधिनियमस्य विंश प्रकरणस्य अनुसारेण एतस्मिन् अवधौ निहितानां घटस्थापना शनिवासर विजयादशमीनां दिनानि विहाय अन्येषु दिनेषु बन्दी प्रत्यक्षीकरण आदेशाभियाचन निवेदनं गृहीत्वा श्रवणं विधीयते। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन गदति सार्वजनिकीं शिक्षां स्वास्थ्यं च निःशुल्कं गुणस्तरीयाञ्च विधातुं दलं सक्रियेण प्रवर्तितं भविष्यति। राप्रपा दलेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्ष लिङ्गदेन राष्ट्रे भ्रष्टाचारः वर्धितोऽस्ति त्यतः सर्वेषां राजनीतिक दलानां नेतृणां सम्पदः अनुसन्धानं विधेयम् एतस्य प्रारभणञ्च स्वस्यैव दलात् विधातुं तत्परतास्तीति प्रतिबद्धतां व्यक्तवान्। राष्ट्रिय प्रजातन्त्र दले प्रवेशानन्तरं वरिष्ठोपाध्यक्षः रविन्द्र मिश्रः देशस्य कृते कार्याणाम् असम्पादकैः जनैः राजनीतिः त्यक्तव्येति चर्चयन् शान्ते स्थिरतायै स्वाधीनतायै च आत्मना राप्रपा दलं प्रचितमिति अवोचत्। काष्ठमण्डपोपत्यकातः विजयादशमी पर्वणः कृते स्वस्वगृहं गन्तुकामानां यात्रानुमति प्रपत्रकर्तॄणां यात्रिणां वञ्चकाः 33 जनाः निगृताः सन्ति। यात्रिभ्यः अधिक यातायात शुल्कस्य ग्रहीतॄन्, कृत्रिम यातायातानुमतिपत्राणां विक्रेतॄन्, द्विरावर्त्य यातायातानुमतिपत्राणां विक्रेतृन् च जनान् महानगरीय प्रहरी कार्यालयेन निगृह्य दण्डनाय समीपवर्ती महानगरीय प्रहरी वृत्तं प्रभागञ्च प्रेषिताः सन्ति। यात्रिणां पर्वोत्सवानाम् अवसरे वञ्चकान् जनान् निरीक्षितुं सामान्य नागरिक वेशे यातायात व्यवस्थापन प्रहरिणः परिचालिताः सन्तीति कार्यालयस्य प्रमुख प्रहरी वरिष्ठ परीक्षकः राजेन्द्र भट्ट अज्ञापयत्। कार्यालयेन विजयादशमी यम पञ्चक छठ प्रवृत्तिनि पर्वाणि लक्ष्यीकृत्य निर्मितायाः कार्ययोजना जनायाः अनुसारेण 100 शतचतुष्टयम् 68 जनाः परिचालिताः सन्तीति ज्ञापितं वर्तते। अमेरिका देशस्य विदेश मन्त्रालयस्य वैश्विक सार्वजनिक विभाग विषयाय निमित्त उपसहायक विदेश मन्त्री एलिजाबेथ टुडो ह्य काष्ठमण्डपं प्राप्ता वर्तते। नेपाल भ्रमणस्य क्रमे असौ काष्ठमण्डपस्थितस्य अमेरिका देशीय दूतावासस्य अधिकारिभिः, युव परिषदः, नागरिक समाजस्य च विभिन्नैः सदस्यैश्च सह मिलतीति दूतावासोऽसौ ज्ञापयति। गोर्खा जनपदस्य उत्तर भागस्य मनास्लु हिमालय गत सोमवासरात विलुप्ता विश्वविख्याता हिमारोहिणी हिलारी नेल्सन मृतावस्थायं प्राप्तास्ति। अमेरिका देशीय नागरिका नेल्सन ह्य प्रात मृतावस्थायं प्राप्ता वर्तते। नेल्सन इत्यस्याः शव हेलिकप्टर विमानस्य माध्यमेन परीक्षणाय काष्ठमण्डपं प्रेषितोऽस्तीति गोर्खा जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक लीला राज लामिछाने ज्ञापयति। 8,000 मीटर मितस्य हिमालय द्वयस्य शिखराभ्यां हिमारोहणं विधाय हिमालय द्वयारोहणस्य कीर्तिः नेल्सन इत्यस्याः नाम्नि वर्तते। सल्यान जनपदे ह्यो जीपयानं दुर्घटितं सद् 8 जनाः घटनास्थले एव अम्रियन्त। राप्ती राजमार्गस्य अन्तर्गते सल्यान कर्पूर कोट ग्रामपालिकायाः तृतीयवडा क्षेत्रस्थे मूलपानी स्थाने ह्य प्रात 7:30 बाँकी जनपदस्य कोलपुरात कपुरकोट ग्रामपालिकायाः रिमस्थानाय प्रस्थीयमानं जीपयानं दुर्घटितम् आसीत्।